इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः जतिनशर्मा। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् पश्चिम एशिया क्षेत्रे संघर्षे सत्यपि भारते कोऽपि ऊर्जा संकटः नास्ति, देशे च इन्धन आपूर्तिः स्थिरा वर्तते। अमेरिका इज़राइल ईरान देशानां मध्ये परस्परं प्रहाराणां प्राबल्येन पश्चिम एशिया क्षेत्रे संघर्षः उत्तरोत्तरं संवर्धते। अद्य सम्पूर्ण राष्ट्रं महान् स्वातन्त्र्य सेनानीभ्यः भगत सिंह राजगुरु सुखदेवेभ्यः तेषां हुतात्मदिवसे सादरं श्रद्धाञ्जलिं व्याहरति। उत्तर कोरिया देशस्य नेता किम जोंग उन राज्यकार्य आयोगस्य तृतीयवारं अध्यक्षत्वेन पुनः नियुक्तः। अथ वार्ताः विशदीकृत्य। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य लोकसभायां पश्चिम एशिया क्षेत्रस्य साम्प्रतिक संघर्ष विषये प्रोक्तं यत् अस्मिन् संकटकालेऽपि भारते ऊर्जा संकटः नास्ति। तेन स्पष्टीकृतं यत् देशे पेट्रोल डीजल इत्यनयोः च आपूर्तिः सुचारुरूपेण प्रचलति।
भारत में बड़ी मात्रा में कच्चा तेल, गैस और फर्टिलाइजर जैसी अनेक जरूरी चीजें हॉर्मुज स्ट्रेट के रास्ते से आती हैं। युद्ध के बाद से ही हॉर्मुज स्ट्रेट में जहाजों का आना जाना बहुत चुनौतीपूर्ण हो गया है। बावजूद इसके हमारी सरकार का ये प्रयास रहा है कि पेट्रोल डीजल और गैस की सप्लाई बहुत ज्यादा प्रभावित न हो, देश के सामान्य परिवारों को परेशानी भी कम से कम हो, इस पर हमारा फोकस रहा है।
प्रधानमन्त्रिणा प्रतिपादितं यत् भारतस्य समीपे 53,00,000 मीट्रिक टन परिमितं रणनीतिक पेट्रोलियम भण्डारः वर्तते। तेन सूचितं यत् सर्वकारः 65,00,000 मीट्रिक टन मिताय भण्डारणाय कार्यं करोति। विगत 11 वर्षेषु भारतस्य परिशोधन क्षमता गंभीररूपेण प्रवृद्धा। प्रधानमन्त्रिणा प्रोदीरितं यत् सर्वकारः विभिन्न देशानां आपूर्ति कर्तृभिः सह निरन्तरं सम्पर्कं स्थापयति, येन तैलवातिन्धनयोः आपूर्तिः अविच्छिन्ना भवेत्।
इस समय पश्चिमी एशिया के हालत चिंताजनक है। बीते 2-3 हफ्तों में जयशंकर जी ने और हरदीप पुरी जी ने इस विषय पर सदन को जरूरी जानकारी दी है। अभी संकट को 3 सप्ताह से ज्यादा हो रहा है, इसका पूरे विश्व की अर्थव्यवस्था पर, लोगों के जीवन पर बहुत ही विपरीत असर हो रहा है। इसलिए पूरी दुनिया इस संकट के जल्द से जल्द समाधान के लिए सभी पक्षों से आग्रह भी कर रही है। भारत के सामने भी इस युद्ध ने अप्रत्याशित चुनौतियां खड़ी कर दी है। ये चुनौतियां आर्थिक भी हैं, नेशनल सिक्योरिटी से जुड़ी भी हैं और मानवीय भी हैं।
प्रधानमन्त्रिणा विशेषतः उल्लेखितं यत् देश विदेशेषु च स्थितानां भारतीयानां सुरक्षा सर्वकारस्य सर्वोच्च प्राथमिकता वर्तते। तेनोक्तं यत् संघर्षस्य आरम्भात् एतावत्पर्यन्तं 37.75 लक्षमिताः भारतीयाः सुरक्षितं स्वदेशं प्रत्यागताः। प्रधानमन्त्रिणा विज्ञापितं यत् भारते प्रभावितदेशेषु च अहर्निशं नियन्त्रणकक्षाः कार्यरताः वर्तन्ते। प्रधानमन्त्रिणा विज्ञापितं यत् भारतं स्वस्य 60% एलपीजी आवश्यकतायै आयातस्य उपरि निर्भरं वर्तते, अतः सर्वकारेण अस्य उत्पादनम् उपलब्धतां च वर्धयितुं कार्यं क्रियते। कृषकाणां प्रशंसां कुर्वन् सः अवदत् यत् देशस्य अन्नभण्डारः पूर्णः अस्ति, उर्वरकस्य च समुचिता व्यवस्था कृता वर्तते। प्रधानमन्त्रिणा व्यापारिकपोतानाम् उपरि आक्रमणानां तीव्रा निन्दा कृता। अन्ते सः विश्वासं प्रकटितवान् यत् यथा भारतेन कोरोनाकालस्य सम्मुखीकरणं कृतं, तथैव एतस्य संकटस्यापि दृढतया सम्मुखीकरणं करिष्यति इति। इज़राइल देशेन हिजबुल्ला संघटनं विरुध्य स्वकीयं सैन्याभियानं सजवीकृतम्। इज़राइल वायुसेनया बेरूत नगरस्य दक्षिण उपनगरेषु वैमानिक आक्रमणानाम् आरम्भो कृतः। एतानि आक्रमणानि तावत् निवासिभ्यः निष्क्रमण सूचना प्रदाय कृतानि। इज़राइल सेनायाः वक्तव्यमस्ति यत् सा संघटनेन सम्बद्धानि केन्द्राणि आधारभूत संरचनानि च लक्ष्यीकरोति। लेबनान देशे तीव्रतर संघर्षेण सह मानवीय संकटमपि निरन्तरं वर्धते। लेबनान प्रशासनेन विज्ञापितं यत् प्रायः 60,000+ जनाः विस्थापिताः अभवन्। दक्षिणभागे स्वास्थ्यकेन्द्रेषु आक्रमणेन आपत्सेवाः बाधिताः अत्रान्तरे तेहरान इत्यनेन कठोरतया प्रत्युत्तरं प्रदत्तम्। आईआरजीसी दलेन प्रमाणितं यत् तेन हिन्द महासागरे स्थितं डिएगो गार्सिया इति अमेरिका ब्रिटेन सैन्य अधिष्ठाने द्वे प्रक्षेपास्त्रे प्रक्षिप्ते। एतेन संघर्षस्य व्याप्तिः अधिकं प्रवर्धमाना दृश्यते। संयुक्त अरब अमीरात देशे अधिकारिणः अवदन् यत् उच्च सतर्कतायाः मध्ये अपि स्थितिः नियन्त्रणाधीना वर्तते। निवासिनः आधिकारिक निर्देशानां पालनाय साहाग्रहं प्रार्थिताः। वायुसीम्नि प्रतिबन्धकारणात् विमानसेवाः परिमिताः सन्ति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ newsonair चलदूरभाषीयतन्त्रांशे अपि समुपलब्धो भविष्यति। अद्य सम्पूर्णदेशः स्वातन्त्र्यसेनानिभ्यः भगतसिंह शिवरामराजगुरु सुखदेवथापरमहोदयेभ्यः तेषां हुतात्मदिवसे सादरं श्रद्धाञ्जलिं व्याहरति। भारतस्य स्वातन्त्र्य आन्दोलने महत्वपूर्णभूमिकायाः कारणात् आङ्ग्लशासकैः 31-29 वर्षे अस्मिन्नेव दिने लाहौरनगरे तेभ्यः मृत्युदण्डः प्रदत्तः। तेषां त्यागस्मृतौ भगतसिंहस्य पैतृकग्रामे खटक कला इत्यत्र राज्यस्तरीय कार्यक्रमः समायोज्यते। अत्रावसरे उपराष्ट्रपतिः सीपी राधाकृष्णन्, प्रधानमन्त्री नरेन्द्र मोदी तथा च अन्ये नेतारः हुतात्मवीरेभ्यः श्रद्धाञ्जलिं समर्पितवन्तः। लोकसभा राज्यसभा इत्यनयोः उभयोः सदनयोः अपि एतेभ्यः त्रिभ्यः क्रान्तिकारिभ्यः सम्मानं विज्ञापितम्। राज्यसभायाः सभापतिः राधाकृष्णन् इत्येषः अवदत् यत् तेषां बलिदानं केवलं स्वातन्त्र्यसङ्ग्रामस्य घटना नासीत्, अपि तु एषः सः निर्णायकक्षणः आसीत् येन राष्ट्रस्य चेतना जागृता, उपनिवेशशासनं विरुध्य एकतायाः प्रेरणा प्रदत्ता। लोकसभायां 26-2000 वित्तविधेयकं चर्चायै स्वीकृतम्। अस्य विधेयकस्य उद्देश्यं 26-2000 27-2000 केन्द्रसर्वकारस्य वित्तीयप्रस्तावानां विधिसम्मततया प्रवर्तनम् इति वर्तते। लोकसभायां वित्तमन्त्री निर्मला सीतारामन् इत्येषा एतं विधेयकं पुरः स्थापितवती। चर्चायाः आरम्भे कांग्रेस पक्षस्य डॉ अमरसिंहेन देशे वृत्तिहीनतायाः विषयः उत्थापितः। तेन आरोपितं यत् कतिपय संस्थानानि एव सर्वकारेण प्रदत्तस्य करमुक्तेः लाभं प्राप्नुवन्ति। असम केरल पुडुचेरी राज्यानां विधानसभा निर्वाचनार्थं नामांकन प्रक्रिया अद्य सायंकाले समाप्ता। श्वः नामांकनानां परीक्षणं भविष्यति। अभ्यर्थिनः गुरुवासरपर्यन्तं नामांकनं प्रत्याहर्तुं शक्नुवन्ति। एतेषु राज्येषु केन्द्रशासितप्रदेशेषु च मतदानम् आगामिमासस्य 9 एकस्मिन् चरणे भविष्यति। नागालैण्डराज्ये अपि कोरिडोंग निर्वाचनक्षेत्रस्य आगामिविधानसभा उपनिर्वाचनार्थं नामांकनपत्राणां प्रस्तुतीकरणप्रक्रिया अद्य समाप्ता। मतगणना 4 भविष्यति। भारत निर्वाचनायोगेन 4 राज्येषु 1 केन्द्रशासित प्रदेशे च आगामि विधानसभा निर्वाचनार्थं राष्ट्रिय राज्यस्तरीय दलानां कृते दूरदर्शन आकाशवाण्ययोः निःशुल्क प्रसारण निमित्तं डिजिटल प्रमाणकानि वितरितानि। अस्याः योजनायाः अन्तर्गतं प्रत्येकस्मै दलाय दूरदर्शन आकाशवाण्ययोः माध्यमेन निःशुल्क प्रसारण सौविध्याय 45 समयः आवंटितः अस्ति। एषा सुविधा राज्यस्य प्रादेशिक संजालस्य अन्तर्गतं सर्वेभ्यः दलेभ्यः समानरूपेण उपलप्स्यते। प्योंगयांग नगरे सर्वोच्च जनसभायाः उपवेशनस्य अनन्तरं उत्तरकोरिया देशस्य नेता किम जोंग उन राज्यकार्य आयोगस्य अध्यक्षत्वेन पुनः नियुक्तः। 16-2000 वर्षे संस्थायाः स्थापनायाः अनन्तरम् एषः तस्य निरन्तरं तृतीयः कार्यकालः अस्ति। एकवारं पुनः मुख्यवार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् पश्चिम एशिया क्षेत्रे संघर्षे सत्यपि भारते कोऽपि ऊर्जा संकटः नास्ति, देशे च इन्धन आपूर्तिः स्थिरा वर्तते। अमेरिका इजराइल ईरान देशानां मध्ये परस्पर प्रहाराणां प्राबल्येन पश्चिम एशिया क्षेत्रे संघर्षः उत्तरोत्तरं संवर्धते इति वार्ताः।